ग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत्। ब्रह्मोवाच वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् श्रीमदङ्गारकस्तोत्रमहामन्त्रस्य गौतम ऋषिः अनुष्टुप् छन्दः अङ्गारको देवता मम ऋणविमोचनार्थे जपे विनियोगः ध्यानम् रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः चतुर्भुजो मेषगतो वरदश्च धरासुतः मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः स्थिरासनो महाकायः सर्वकामफलप्रदः लोहितो लोहिताक्षतश्च सामगानां कृपाकरः धरत्मजः कुजो भौमो भूमिजो भूमिनन्दनः अङ्गारको यमश्चैव सर्वरोगापहारकः सृष्टिकर्ता च हर्ता च सर्वदेवैश्च पूजितः एतानि कुजनामानि नित्यं न्ययप्रयतः पठेत् ऋणं न जायते तस्य धनं प्राप्नोत्य संशयम् अङ्गारकमहीपुत्र भगवान् भक्तवत्सल नमोऽस्तु ते ममाशेष ऋणमाशु विनाशय रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदकैः मङ्गलं पूजयित्वा तु दीपं दत्त्वा तदन्तिके ऋणरेखाः प्रकर्तव्या अङ्गारेण तदकृतः ताश्च प्रमार्जयेत् पश्चात् वामपादेन संस्पृशन् मूलमन्त्रः अङ्गारकमहीपुत्र भगवान् भक्तवत्सला नमोऽस्तु ते ममाशेष ऋणमासु विमोचय एवं कृतेन सन्देहो ऋणं हित्वा धनी भवेत् महति। श्रियमाप्नोति ह्यपरो धनदो यथा अर्ख्यमु अंगारकमहीपुत्र भगवान् भक्तवत्सला नमोस्तु ते ममाशेषा ऋणमासु विमोचया भूमिपुत्र महातेजा स्वेदोद्भव पिनाकिनः ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणाघ्यं नमोऽस्तु ते इति ऋणविमोचकाङ्गारकस्तोत्रम्।